इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना ह्यः आकाशवाण्यां मन की बात इति कार्यक्रमस्य चतुर्दशाधिकैकशततम संस्करणस्य सम्बोधनं विहितम्। स्वीय मासिक प्रसारणावधौ प्रवदता प्रधानमन्त्रिणा कथितं यत् मेक इन इण्डिया इति योजनायाः समारम्भकारणात् भारतं विनिर्माणक्षेत्रे महाशक्तिः समभवत्। तेनोदीरितं यत् अनेन अभियानेन निर्धनाः मध्यमवर्गीयाः सूक्ष्मलघु मध्यमोद्योगाः लाभान्विताः समभवन्। तथैव अनेन अभियानेन प्रत्येकवर्गस्य जनेभ्यः स्वप्रतिभाप्रदर्शनार्थमपि अवसराः प्रकल्पिताः। श्रीमोदिना जनाः सम्प्रार्थिताः यत् ते आगामिषु उत्सवेषु मेक इन इण्डिया इत्यस्य उत्पादान् क्रीणन्तु। तेनोदीरितं यत् सूचना प्रसारण मन्त्रालयेन प्रतिभां रचनात्मकतां च संवर्धयितुं क्रिएट इन इण्डिया इति विषयान्तर्गतं 25 समाह्वानानि समारब्धानि। प्रधानमन्त्री नरेन्द्रमोदी ह्यः दृश्य श्रव्य परान्तर्जालीय माध्यमेन भूयोऽपि 2011,00,000 कोटिरूप्यकाणां विभिन्न विकास परियोजनानां आधारशिलां संस्थाप्य राष्ट्राय समर्पितवान्। प्रधानमन्त्रिणा जनपद न्यायालय स्वरगेट इत्यनयोः मध्ये पुणे मेट्रो रेल खण्डस्यापि उद्घाटनं विहितम्। जम्मूकश्मीर विधानसभायाः तृतीयाय अन्तिमाय च चरणाय सर्वविध सज्जताः सम्पादिताः। शान्तिपूर्णं घटनामुक्तं च मतदानं विधातुं सुदृढ सुरक्षाव्यवस्थापि सुनिश्चिताः जाताः। श्वः एतस्मिन् चरणे 7 जनपदानां 40 विधानसभासनेभ्यः मतदानं समनुष्ठास्यते। 40 विधानसभाक्षेत्रेषु कश्मीर संभागस्य 16 आसनानि तत्रैव जम्मू संभागस्य 24 आसनानि निहितानि सन्ति। मतदान प्रक्रिया प्रातः 7 वादनात् समारप्स्यते अपि च सायंकाले 6 वादनं यावत् प्रचलिष्यति। ध्यातव्यमस्ति यत् प्रथमे चरणे 61%, द्वितीये चरणे च 55% यावत् मतदानं समंकितम्। हरियाणां समेत्य मतगणना अक्टूबर मासस्य 8 दिनांके भविष्यति। प्रसार भारत्याः अध्यक्षः नवनीत सहगलः आकाशवाण्या प्रसारिते मन की बात कार्यक्रमावधौ स्वीये सम्बोधने प्रसारभारती आकाशवाणी दूरदर्शन इत्येतेषां प्रशंसां कर्तुं प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति आभारं प्रकटितवान्। विदेशी निवेशकैः भारतीय समता विपण्यां 75,000,000,000,000 रूप्यकाणां निवेशः कृतः यत् सितम्बर मासात् पश्चादेव अधिकमस्ति। अयं निवेशः भारतीय विपणीषु सततं 3 मासानां शुद्धनिवेशस्य पश्चादेव जातः। इस्राइल देशेन हौथी लक्षितेषु स्थानेषु वायवीयाक्रमणानां एका श्रृंखला समारब्धा। इस्राइल देशीयेन सैन्यबलेन स्पष्टीकृतं यत् ते विगते दिनद्वये इस्राइल देशं विरुध्य ईरान सम्बद्ध हौथी आतंकवादिभिः साम्प्रतिके एव समये जातस्य प्रक्षेपास्त्राक्रमणस्य प्रत्युत्तराय आसन्। अपि च क्रीडावार्तायां हॉकी इत्येतस्याः भारत कनिष्ठ महिला राष्ट्रिय प्रतिस्पर्धायाः अस्य वर्षस्य 14वं संस्करणम् अद्य झारखण्डस्य रांचीनगरे समारप्स्यते। अस्यै प्रतिस्पर्धायै 26 दलानि पारस्परिक सामुख्यं विधास्यन्ति। प्रागुपान्त्यचक्रम् अक्टूबर मासस्य 7 दिनांके अथ च उपान्त्यचक्रम् 9 दिनांके क्रीडिष्यते। केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् विश्वस्य सर्वेषां देशानाम् अपेक्षया भारतस्य आर्थिक दशा सर्वाधिका प्रबलास्ति। ह्यः नवदिल्ल्यां संकल्प ट्रस्ट फाउण्डेशन द्वारा आयोजित व्याख्यानमालायां दशम संस्करणस्य सत्रं सम्बोधयन् श्रीवैष्णवः अवदत् यत् अन्यदेशानां तुलनायां भारते उच्चवृद्धेः मुद्रास्फीतेः च कुशीद मूल्येषु न्यूनता वर्तते इति वार्ताः।